शक्रेण संयतिहतोऽपि बलिर्महात्मा शुक्रेण जीविततनुक्रतु वर्धितोऽस्मा विक्रान्तिवाङ्मयनिलीनसुरा त्रिलोकीम् चक्रे वशेष तव चक्रमुखादभीतः पुत्रातिदर्शनवसत् अदितिर्विषण्ण तम् काश्यपौ निजपतिम् शरणौ प्रपन्न त्वत्पूजनम् तदुदितम् हि पयोव्रताख्यम् सा द्वादशाहमचर त्वयि भक्तिपूर्णा तस्यावदौ त्वयि निलीनमतेरमुष्याः श्यामश्चतुर्भुजवपुः स्वयमाविरासीः नम्राम् च तामिह भवत्तनयो भवेयौ गोप्यम् मदीक्षणमिति प्रलपन्नयासीः त्वम् काश्यपे तपसि सन्निदत्तदानीम् प्राप्तोऽसि गर्भमदिते प्रणुतो विधात्रा प्रासूत च प्रकट वैष्णव दिव्यरूपौ सा द्वादशी श्रवण पुण्यदिने भवन्तौ पुण्याश्रमम् तमभिवर्षति पुष्पवर्षैः हर्षाकुले सुरकुले कृततूर्यघोषे बद्ध्वाञ्जलिम् जय जयेति नुत पितृव्याम् त्वम् तच्छने पटुतमम् पटुरूपमाधः तावत् प्रजापतिमुखैरुपनीयमौञ्जी दण्डाजिनाक्षवलयादिभिरच्यमानः देदीप्यमानव पुरीश कृताग्निकार्यस्त्वम् प्रास्थिता बलिगृहम् प्रकृता स्वमेधम् गात्रेण भावि महिमोचित गौरवौ प्राग्वृण्वतेव धरणि चलयन्नयासीः छत्रम् परोष्मतिरनातमिवादधानो दण्डम् च दानवजने शिव सन्निधातु ताम् नर्मदोत्तरतते हयमेदशालाम् आसे दुषि त्वैरुच तव रुद्धनेत्रैः स्वान् किमेष दशनोऽनुसनत्कुमारो योगीनुकोऽयमिति शुक्रमुखैः शशङ्के आनीतमासु मृगुभिर्महसा विभूतैः त्वाम् रम्यरूपमसुरपुलकावृताङ्गः भक्त्या समेत्य सुकृति परिणिज्य पादौ तत्तोऽयमन्वृतमूर्धनि तीर्थतीर्थौ प्रह्लादवंशजतया क्रतुभिर्द्विजेषु विश्वासतोऽनुतरिरम् दिदिजोऽपि लेभे यत्ते कदाम्बुगिरिशस्य शिरोऽभिलाल्यम् सत्त्वम् विभो गुरुपुरालय पालयेत।